परद्रोह जननम् सत्यं भाष्यं न कर्हिचित् कृतघ्नसङ्गस्त्यक्तव्यो लुञ्चाग्राह्या न कस्यचित्।